एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल राप्रपा नाम्नो राष्ट्रिय प्रजातन्त्र दलस्य एकताधिवेशनम् गतदिने काष्ठमण्डपस्य भ्रिकुटी मण्डपे प्रारब्धमस्ति। महाधिवेशनस्य उद्घाटन कार्यक्रमे शुभकामनाम् अभिव्यज्यमानः प्रधानमन्त्री शेरबहादुर देउवा अवदत् राष्ट्रिय विषयेषु सर्वैर्दलैः एकताबद्धतया क्रियाशीलैर्भाव्यम्। प्रधानमन्त्री देउवा अकथयत् दलगत विचारा भिन्न सन्नपि राष्ट्रियताया लोकतन्त्रस्य च पक्षे सर्वेषां दलानां एकताबद्धतया अग्रे वर्धनस्य विकल्पो न विद्यते। समारोहे नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड राष्ट्रस्य स्वाधीनताया रक्षायै सर्वेषां दलानां मध्ये सहमति सहकार्यार्थं बलं प्रादात्। कार्यक्रमे नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल अगदत् नेपाले सम्भूते प्रत्येकं परिवर्तने वामदलेन महत्वपूर्ण भूमिका निरूढा वर्तते। नेकपा एमाले दलस्य वरिष्ठोपाध्यक्ष ईश्वर पोखरेल अगदत् देश जनतयोर्हिताय एमाले दलं राप्रपा दलञ्च एकत्र स्थातुं शक्नुतः। राप्रपा दलस्य अध्यक्ष कमल थापा नवीनेन पुरातनेन वा केनापि प्रपञ्चेन दलस्य अभ्यन्तरे विभाजनस्य रेखा न लेखनीयेति चर्चयन् दले स्थापना कालात् कठोर श्रमं कुर्वतां नेतृणाम् उच्चैर् मूल्याङ्कनं विधातुं बलं प्रादात्। राप्रपा दलस्य अपरोध्यक्ष पशुपति शमशेर राणा राप्रपा दलस्य एकतायै आत्मना अध्यक्षाय न प्रतिस्पर्धितुं निर्णीतमिति अब्रवीत्। राप्रपा दलस्य अपरोध्यक्ष डाक्टर प्रकाश चन्द्र लोहनी अभाषत देशस्य संविधानं संसारस्यैव उत्कृष्टं सदपि एतदनुरूपं जनतया प्रतिफलं प्राप्तुं सक्तम नास्ति। राप्रपा दलस्य नेता राजेन्द्र लिङ्गदेन अतर्कयत् दलेन उत्थापितान् विषयान् सफलयितुम् एकवारं कार्यकारिणी भूमिका परिवर्तनीया। कार्यक्रमे नेकपा माले दलस्य महासचिव सीपी मैनाली अन्य नेतारश्च समबोधयन्। दिवसत्रयावधि सञ्चल्यमानेन राप्रपा दलीयाधिवेशनेन आगामी वर्ष पञ्चकस्य कृते नवीनं नेतृत्वं चेष्यते। राष्ट्रपतिना विद्यादेवी भण्डारिणा ह्य विभिन्ना षड् अध्यादेशा क्रियान्विता सन्ति। मन्त्रिपरिषद परामर्शेन राष्ट्रपतिना भण्डारिणा एतद् विक्रमाब्दीया यौन हिंसा विरूद्धस्य कतिचित् अधिनियमानं संशोधनाध्यादेश जघन्यापराध दण्डन सम्बद्धानां जघन्यापराध कार्यविधि सम्बद्धानां च कतिचित् अधिनियमानां संशोधनाध्यादेश नेपाल प्रहरी प्रदेश प्रहरी कार्य सञ्चालन सुपरिवेक्षण समन्वय प्रथम संशोधनाध्यादेशश्च क्रियान्विताः सन्ति। एवमेव राष्ट्रपतिना भण्डारिणा एतद् विक्रमाब्दीयाः अति ज्वलनशील रासायनिक पदार्थस्य अन्य घाट तग रासायनिक पदार्थानां च नियमनाध्यादेश सामाजिक सुरक्षा प्रथम संशोधनाध्यादेश रेलयान सेवाध्यादेशश्च क्रियान्विताः इति राष्ट्रपति कार्यालयेन ह्य प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। नेपाली कांग्रेस दलस्य चतुर्दश महाधिवेशनस्य अन्तर्गतम् अद्य प्रदेशाधिवेशनम् प्रारभमाणम् वर्तते। महाधिवेशनस्य अन्तर्गतम् ह्यस्तनावधि एकषष्ट्याम् जनपदेषु दलस्य नूतन जनपद सभापतयः निर्वाचिताः सन्ति। एकषष्ट्याम् जनपदेषु महाधिवेशन प्रतिनिधयश्च निर्वाचिताः वर्तन्ते। प्रथम प्रदेशस्य कर्णाली प्रदेशस्य च सर्वेषु जनपदेषु अधिवेशनम् सम्पन्नमिति केन्द्रीय निर्वाचन समितेः सचिव जगन्नाथ श्रेष्ठः अज्ञापयत्। कोरोना विषाणो ओमिक्रोन नाम्नि नवीना प्रजाति अधुनावधि नेपाले नदृष्टेति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। मन्त्रालयेन ह्य विज्ञप्तिं प्रकाश्य दक्षिण अफ्रिका देश क्षेत्रस्य एसिया क्षेत्रस्य च कतिचित् देशेषु व्यापृतो विषाणु नेपाले दृष्टो नास्ति, तथापि अत्यावश्यक कार्याणि विहाय विदेश भ्रमणं न कर्तुं सावधानताम् अवलम्बितुं च अनुरोधम् वर्तते। मन्त्रालयस्य सप्रवक्ता डाक्टर समीर कुमार अधिकारिणा समय एव सावधानताम् अवलम्ब्य नवीन प्रजातेः विषाणोः नेपाले प्रवेशनम् रोद्धुम् जनजीवनम् सामान्यम् स्थापयितुम् च सम्बद्ध निकायः तीव्ररूपेण कार्याणि कुर्वन्तः सन्तीति ज्ञापितम् वर्तते। अत्रान्तरे आराष्ट्रम् इह अतिरिक्तेषु षोडशोत्तर शतत्रय जनेषु कोरोना विषाणो संक्रमणम् पुष्टीभूतमस्ति। ह्य उनषष्ट्युत्तर शतद्वयम् जना संक्रमणात् मुक्ताः सन्ति। सम्प्रति संक्रमणान् मुक्तानाम् जनानाम् अनुपात प्रतिशतम् 0.7/7 संक्रमणेन ह्य अतिरिक्ताः त्रयो जनाः मृता। सम्प्रति आराष्ट्रम् 60,954 कोरोना विषाणो सक्रिय संक्रान्ताः जनाः वर्तन्ते। एवमेव ह्य आराष्ट्रम् 27,584 जना कोरोना विषाणो प्रतिरोधी टीकाकरणम् आहितवन्त इति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। प्रधानमन्त्री शेरबहादुर देउवा उच्च शिक्षाम् वैज्ञानिकीम् व्यावहारिकीम् वृत्तिपार्जन सर्जिकाम् गुणस्तरीयाञ्च विधातुम् बलम् ददाति। मध्य पश्चिमाञ्चल विश्वविद्यालयस्य एकादशीम् सभाम् वार्षिक नीति कार्यक्रमम् च यः सम्बोधयन् प्रधानमन्त्री देउवा आवासत राष्ट्रस्य समग्र विकासस्य दिङ्निर्देशनम् कर्तुम् विश्वविद्यालयस्य पाठ्यक्रमे सामयिक परिमार्जनेन सह दक्ष जनशक्तिम् उत्पादयम् च बलम् देयम्। प्रधानमन्त्री शेरबहादुर देउवा कथयति राष्ट्रिय निवेशनस्य वातावरणम् सहजम् कर्तुम् व्यवसाय निवेशनम् न्यूनीकर्तुम् च सर्वकारेण सर्वविधाः उपायाः अवलम्ब्यन्ते। सेजन नाम्नः नेपालार्थिक पत्रकार समाजस्य स्थापनाय रजत जयन्त्याम् सेजन पुरस्कार वितरण समारोहे च प्रधानमन्त्री देउवा स्वदेशिनः वैदेशिकाञ्च निवेशन कर्तन् निर्भयेन नेपाले निवेशयितुम् अन्वरुणत। कार्यक्रमे अर्थमन्त्री जनार्दन शर्मा अगदत् पूर्वाधार विकास निर्माणे राज्य संयन्त्रस्य कार्य सम्पादन संरचनाम् सार्वजनिक करणाधिनियम प्रवृत्तिन् विधिञ्च विकास मैत्रिणो विधातुम् आवश्यकमस्ति। सर्वोच्च न्यायालय ह्यस्तन दिवसात् गोल प्रक्रियया न्यायिक प्रकरणानां प्रस्तुति निर्धार्य श्रवणं प्रारब्धमस्ति। सर्वोच्च न्यायालयस्य नियमावलिं संशोध्य नेपालस्य न्यायालयस्य इतिहासे प्रथमवारं गोलम् आदाय न्यायपीठ संघटनात्मक गोलम् आदायैव न्यायिक प्रकरणानां श्रवणात्मकश्च अभ्यास प्रारब्धोऽस्ति। सर्वोच्च न्यायालयस्य प्रवक्ता बाबुराम दाहला सर्वोच्च न्यायालय मुख्य रजिष्ट्रार पदीयेन साप्ताहिक रूपेण सूची प्रकाश्यते तदनुरूपं न्यायिक प्रकरणानां कृते न्यायाधीशानाम् एकल संयुक्त बृहन् न्यायपीठानाम् संघटनस्य च व्यवस्था विधीयते इत्यवोचत। नेपाल बार एसोसिएशन संघेन मंगलवासरे एव गोल प्रक्रियया न्यायपीठ संघटनस्य न्यायिक प्रकरणानाम् प्रस्तुते व्यवस्थापनस्य च कार्यम् अभ्यर्थितम् आसीत्।